इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। संसदः आयव्ययकसत्रस्य द्वितीयचरणम् अद्य आरभ्य अग्रिममासस्य द्वितीयदिनांकपर्यन्तं च प्रचलिष्यति। लोकसभायाम् अद्य अध्यक्षस्य ओम बिरलावर्यस्य निष्कासनार्थं प्रस्तावोऽपि प्रस्तावितः भविष्यति। मोहम्मद जावेदः, के सुरेशः, मल्लुरविः च कांग्रेसदलस्य त्रिभिः सदस्यैः प्रस्तावः प्रस्तूयते। यदि लोकसभायां प्रस्तावः स्वीकृतः भविष्यति तर्हि श्रीबिरलावर्यः कार्यचरणस्य अध्यक्षतां न करिष्यति। सः संसदस्य सदस्यानां मध्ये एव स्थास्यति। विदेशमन्त्री डॉ एस जयशंकरः अपि लोकसभायां पश्चिम एशियायाः स्थित्यां वक्तव्यं प्रदास्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य आभासीय माध्यमेन सबका साथ सबका विकास जनानाम् आकांक्षाणां पूर्तिः इत्यस्मिन् विषये आयव्ययक वेबिनार उत्तराभिसम्बोधनं करिष्यति। अस्य विषयस्य अन्तर्गतं शिक्षाकौशलं, स्वास्थ्यं, आयुष, पर्यटनम्, आतिथ्यम् इत्यादिषु क्षेत्रेषु बहुविधानि ब्रेकआउट सत्राणि आयोक्ष्यन्ते। चर्चासु पूर्वोत्तरक्षेत्रे शिक्षायाः आजीविकायाः मार्गस्य निर्माणं, एनिमेशन इत्यस्य विकासादि उपक्रमाः समाविष्टाः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां प्रायः 500,000,000,000 रूप्यकाणां बहुविधविकासपरियोजनानाम् उद्घाटनं शिलान्यासञ्च विहितवान्। अवसरेऽस्मिन् श्रीमोदी अवदत् यत् राष्ट्रियराजधान्यां सुविधाः, अवसंरचनाश्च निरन्तरं सुदृढाः, विस्तारिताः च भविष्यन्ति। प्रधानमन्त्री अवदत् यत् अद्य उद्घाटिताः नूतन मेट्रोविभागाः दिल्लीराजधान्याः निवासिनां कृते महत्वपूर्णं लाभं प्रदास्यति। सः देहली मेट्रो इत्यस्य द्वयोः नूतनयोः मार्गयोः अपि उद्घाटनम् अकरोत्। एते मार्गाः राष्ट्रियराजधान्याः अनेकेभ्यः महत्वपूर्णेभ्यः स्थानेभ्यः साक्षात् सम्पर्कं प्रदास्यन्ति।
जो मेट्रो का नया सेक्शन शुरू हुआ है उसे राजधानी के लाखों लोगों को बहुत बड़ी सुविधा मिलने वाली है, खासतौर पर पूर्वी और उत्तर पूर्वी दिल्ली के लोगों के लिए। अब रोज का सफर पहले से कहीं ज्यादा आसान होगा। इन सब के साथ ही गाजियाबाद, नोएडा, फरीदाबाद और गुरुग्राम जैसे एनसीआर के शहरों से दिल्ली के अलग अलग हिस्सों में आना जाना और भी आसान हो जाएगा।
ईरान देशस्य दिवंगतस्य सर्वोच्च नेतुः पुत्रः मोजताबा खामेनेई इत्येषः तस्य उत्तराधिकारी नामांकितः। ईरान देशस्य राज्य प्रवाहिकया घोषितं यत् ईरान देशस्य पैरामिलिटरी रिवोल्यूशनरी गार्ड कॉप्स आईआरजीसी इत्यनेन नूतनं नेतारं प्रति निष्ठायाः संकल्पः स्वीकृतः। परञ्च अमेरिकादेशस्य राष्ट्रपतिः डोनाल्डवर्यः गतसप्ताहे ऑक्सियोस इत्यनेन सह वार्तालापं कुर्वन् उक्तवान् आसीत् यत् खामेनेई तस्य पुत्रः तस्मै अस्वीकार्यः भविष्यति इति। सः सूचितवान् यत् ईरानदेशस्य अग्रिमनेतृत्वं निर्णेतुं संयुक्तराज्यामेरिकादेशस्य भूमिका भवेदिति। गतरात्रौ अहमदाबादस्य नरेन्द्रमोदी क्रीडांगणे निर्णायक क्रीडायां भारतीयदलेन न्यूजीलैण्डदलं 96 धावनांकैः पराजित्य आईसीसी पुरुषाणां 20-प्रति-20 विश्वचषकोपाधिं तृतीयवारं विजित्य ऐतिह्यं विरचितम्। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः, प्रधानमन्त्री नरेन्द्रमोदी च विश्वचषक विजयाय भारतीय क्रिकेटदलं प्रति अभिनन्दनं प्रेषितवन्तौ। इति वार्ताः।